सर्वेषां स्वागतं संस्कृतकक्षायां. प्रथमतया अहम् एकं श्लोकं वदामि. काव्यशास्त्रविनोदेन कालो गच्छति धीमतां, व्यसनेन च मूर्खाणां निद्रया कलहेन वा. इत्युक्ते बुद्धिमन्तः पुरुषाः काव्यपठनेन अथवा शास्त्रपठनेन, नो चेत् अथवा शास्त्रपाठनेन कालयापनं कुर्वन्ति, परन्तु मूर्खजनाः काव्यशास्त्रपठनं विना अन्यानि निष्फलानि कार्याणि कुर्वन्ति. इत्युक्ते मूर्खाः सर्वदा व्यसनेषु निमग्नाः भवन्ति, अथवा निद्रां कुर्वन्ति, अथवा ते अन्यैः सह कलहं कुर्वन्ति, तथा ते सर्वदा वृथा कालयापनं कुर्वन्ति. परन्तु वयं सर्वे जानीमः कालः तु परिमितः, अस्माकं कृते केवलं नियतकालः एव दत्तः. अतः कालस्य दुर्विनियोगं मा कुर्वन्तु, विचिन्त्य सम्यक् रीत्या उत्तमानि कार्याणि कुर्वन्तु, ज्ञानं सम्पादयन्तु इति एषः सुभाषितकारः वदति. परन्तु ज्ञानं सम्पादयन्तु इति वदति, किमर्थं ज्ञानम् इति चिन्तयामः चेत् अत्र एका सूक्तिः अस्ति, सूक्तिः न परन्तु भगवद्गीतायाम् एकः श्लोकः अस्ति, सः कः इत्युक्ते, न हि ज्ञानेन सदृशम् इह विद्यते. ज्ञानेन सदृशम् इत्युक्ते ज्ञानेन तुल्यं किमपि लोके नास्ति. परमात्मा एव उक्तवान्. अतः वृथा कालयापनं मा कुर्वन्तु इति सुभाषितकारः वदति, अस्माकं कृते एव सः वदति. न हि ज्ञानेन सदृशम् इह विद्यते. उत्तमम्. अनन्तरं वयं गतसप्ताहे अहं किञ्चित् गृहपाठं प्रेषितवती. तत्र करपत्रद्वयं प्रेषितवती अहं. प्रथमं करपत्रमस्ति सर्वनाम्नां द्वितीया विभक्तिरूपाणि. इत्युक्ते तस्मिन् करपत्रे एकवचनरूपाणि सन्ति, अपि च बहुवचनरूपाणि, प्रथमाविभक्तौ अपि च द्वितीयाविभक्तौ अपि दत्तानि. एतत् करपत्रं स्वरूपमहोदयेन निर्मितम्. अतः किञ्चित् कालं वयं करपत्रं दृष्ट्वा किञ्चित् समयं कालयापनं कुर्मः. अत्र प्रथमतया अहं किं करोमि इत्युक्ते, सुचित्रा भगिनी, भवत्याः पार्श्वे करपत्रमस्ति चेत् एकवारं पश्यतु, करपत्रं पश्यतु.
नमस्ते भगिनि.
विलम्बेन के के आगतवन्तः?
नमस्ते भगिनि.
गीता,
स्वागतं भगिनी. वंशी सुधा भगिनी अस्ति, अनन्तरं गीता भगिनी अस्ति. स्वागतं. नमस्ते. अनन्तरं सुचित्रा भगिनी, भवत्याः पार्श्वे सर्वनाम्नां द्वितीया विभक्तिरूपाणि इति करपत्रमस्ति चेत् करपत्रं पश्यतु प्रथमतया. अत्र किं दत्तमस्ति किञ्चित् पठतु.
आं भगिनि. एकं वचने, बहुवचने प्रथमा विभक्ति, शुड् ऐ जस्ट् गो प्रथमा विभक्ति
द्वितीया? अत्र पश्यतु भगिनि, एकं वचनं न, एकवचनम्.
एकवचने
अत्र 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 किमस्ति चेत्, यदि भवती पृथक्तया सेपरेट्, देट् मीन्स् इफ् यु वाण्ट् टु टेल् द सेम् थिङ्ग् सेपरेट्लि, पृथक्तया वक्तुम् इच्छति चेत् एकं वचनं समीचीनमेव. परन्तु समासं कृत्वा वदामश्चेत्, एकवचनम् इति भवति. तत्तु अवगन्तव्यं. देट् मीन्स् वेन् देर् इस् अ समास, एकवचनं, तत्र समासः अस्ति. एकं वचनं समीचीनं, तथा एव एकवचनं तदपि समीचीनं, परन्तु एकवचनम् इति वदामश्चेत् तत्र समासः अस्ति. प्रथमतया कथं वक्तव्यम् इत्युक्ते, अत्र कथं पठनीयम् इत्युक्ते, सः प्रथमाविभक्तौ सः अस्ति तस्य बहुवचनरूपं किं प्रथमाविभक्तौ केवलं प्रथमाविभक्तिरूपाणि एव पठतु
ओके आं भगिनि ओके प्रथमाविभक्ति सः एषः कः
न न तथा न सः प्रथमाविभक्तिरूपं तस्य तस्य बहुवचनरूपं किं ते
ओके 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 या ओके भगिनि ओके सः ते एषः एते कः के सा ताः एषा एताः काः का काः तत् तानि एतत् एतानि किं कानि भवान् भवन्तः भवति भवत्यः अहं वयम्
उत्तमं भवती कानिचन वाक्यानि रचयितुं शक्नोति वा सः उपयुज्य एकं वाक्यं रचयतु
सः कृष्णः मित्राः
अत्र पश्यतु अत्र उत्तमं महोदय अत्र यद्वाक्यं भवती उक्तवती सः कृष्णः तदेव वाक्यं बहुवचने तदेव वाक्यं बहुवचने वदतु
सः कृष्णः ते कृष्णाः
उत्तमं ते कृष्णाः उत्तमं परन्तु भवती यदुक्तवती मित्राः इति पदं नास्ति मित्राः इत्युक्ते संस्कृतभाषायां मित्रः इत्युक्ते सूर्यः परन्तु मित्रम् इत्युक्ते सखः इत्युक्ते मित्रम् इत्युक्ते फ्रेण्ड् परन्तु मित्रः इत्युक्ते सूर्यः अतः सर्वदा मित्रं मित्राणि इति एव भवति अत्र एकं एतत् पदद्वयमपि सः अपि च ते अपि वदतु भगिनि
क्षम्यता मित्रमेव नपुंसकलिङ्गे एव भवति महोदय
उत्तमम् मित्रं नपुंसकलिङ्गपदं मित्रः पुंलिङ्गपदं तयोर्मध्ये भेदः अस्ति मित्रः इत्युक्ते सूर्यः मित्रम्
यदि पुरुषः मित्रः अस्ति कथं वक्तुं शक्नोमि मित्रमेव वदितुं शक्नोमि
मित्रमेव अत्र भगिनी सुचित्रा भगिनी भवती अत्र पश्यतु सः अपि च ते पदद्वयमपि सर्वनामपदानि परन्तु एकं नामपदमपि योजयित्वा वाक्यं रचयतु सः बालकः भवती उक्तवती एव सः बालकः अपि च क्रियापदं सः बालकः गच्छति अवगतवती वा इत्युक्ते अत्र सः इति सर्वनामपदं बालकः नामपदं गच्छति क्रियापदं तथा करोतु
ओके सः गृहं गच्छति
सः गृहं गच्छति
सः गृहं गच्छति
अस्तु 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 तदेव वाक्यं बहुवचने वदतु
ते गृहं गच्छन्ति
उत्तमं द्वितीयं करोतु तथा एव
ते
न एषः
एषः एषः बालकः क्रीडति
अत्र पुनः वदतु तदेव
एषः बालकः क्रीडति एते बालकाः क्रीडन्ति
उत्तमं तथा एव तृतीयं करोतु
कः बालकः ओके कः बालकः के बालकाः
न वाक्यं रचयतु भवती जानाति एव कः इति प्रश्नवाचकपदम् एकं वाक्यं लघु वाक्यं रचयतु यद्भवती कुर्वती अस्ति तत्तु समीचीनमेव तथा एव करोतु
कः बालकः, एषः बालकः, के बालकाः,
के बालकाः, उत्तमं,
ते बालकाः,
के बालकाः, उत्तमम्. अनन्तरं सा योजयित्वा एकं वाक्यं रचयतु. तस्मिन् वाक्ये सर्वनामपदम् अपि स्यात्, नामपदमपि स्यात्, अपि च एकं क्रियापदमपि. इट् शुड् हेव् ए प्रोनौन् एण्ड् ए नौन् इफ् पासिबल् एन् आब् ए वेर्ब् एण्ड् इफ् यु आल्सो केन् डु इट् देन् यु केन् एड् एन् आब्जेक्ट् आफ् द सेण्टेन्स् आल्सो. देट् मीन्स् दि इफ् यु केन् मेक् a sentence with four different parts of speech, that would be better. That is the best way to create a sentence. Prayatnam karotu.
Sa pratidinam nrutyati.
Dvitiyam vakyam. Anantram karotu. Bahu vachani.
Tah pratidine nrutyanti.
अत्र अत्र पश्यतु भगिनी, तदेव वाक्यं पुनः वदतु.
सः प्रतिदिनं नृत्यति, ताः प्रतिदिने नृत्यन्ति.
दिने किमर्थं?
दिने या दिनेषु. ऐ लिसन् टु युर् अदर् क्लास् भगिनि.
अत्र उत्तमम्. अत्र उत्तमं भगिनि. अत्र किमर्थम् अहं वदामि इत्युक्ते, ताः अत्र प्रतिदिनं, प्रतिदिनम् इति पदं क्रियाविशेषणं, क्रियाविशेषणम् इत्युक्ते आङ्ग्लभाषायाम् एड्वर्ब् इति वदामः. इत्युक्ते तत्र प्रतिदिने न, केवलं प्रतिदिनं, प्रतिदिनं नृत्यन्ति इति भवति. अनन्तरं एषा इति पदमस्ति, एषा योजयित्वा वाक्यं रचयतु.
एषा बालिका, एषा बालिका डाल् इस् पञ्चलिका, पञ्चलिकायां क्रीडति, या पञ्चलिका लिकस्य क्रीडति.
एषा बालिका
पाञ्चालिका, पाञ्चालिकाय क्रीडति.
एषा बालिका पाञ्चालिकया पाञ्चालिकया क्रीडति. अत्र तदेव वाक्यं बहुवचने वदतु.
एताः बालिकाः पाञ्चालिकेन क्रीडन्ति. पाञ्चालिका पाञ्चालिकेन पाञ्चालिका पाञ्चालिकाः या पाञ्चालिकाया क्रीडन्ति. पाञ्चालिकाया क्रीडन्ति.
अत्र एताः बालिकाः, अत्र पाञ्चालिकया इति एकवचने उक्तवती. तत्र पाञ्चालिका इति पदस्य तृतीया बहुवचनम् आवश्यकं. कः वदति पाञ्चालिकापदस्य तृतीया बहुवचनं किं, कः वदति? गीता भगिनी वदति वा? अत्र पाञ्चालिका इति पदस्य बहुवचनरूपं किं?
पाञ्चालिका.
उत्तमं करोतु, समीकरोतु भगिनी. एताः बालिकाः,
एता बालिका, बालिकाः पाञ्चालिकाय क्रीडन्ति.
पाञ्चालिकाभिः क्रीडन्ति.
पाञ्चालिकाभिः
किमर्थम् इत्युक्ते, एकवचने भवति एषा बालिका पाञ्चालिकया क्रीडति इत्युक्ते तृतीयाविभक्ति एकवचनं योजयित्वा उक्तवती. अत्र तृतीयाविभक्तेः बहुवचनरूपम् आवश्यकम् अस्मिन् वाक्ये. किमर्थं भवती वाक्ये यानि यानि पदानि सन्ति तानि सर्वाणि अपि बहुवचने वक्तुमिच्छति. अतः एताः बालिकाः पाञ्चालिकाभिः क्रीडन्ति इत्युक्ते तस्मिन् वाक्ये चत्वारि पदानि सन्ति, चत्वारि पदानि अपि बहुवचने उक्तवती भवती. हा उत्तमं भगिनी, धन्यवादः. अत्र गीता भगिनी भवती करोति वा अन्यानि पदानि योजयित्वा कानिचन वाक्यानि रचयति वा? काः
नो का का कुत् सा कुत्र अस्ति,
सा कुत्र अस्ति बहुवचने, तदेव वाक्यं बहुवचने वदतु.
ओ सा यु सा सा इस् द वर्ड् यु वाण्ट् मी टु से सा.
न न भगिनि, अत्र का भवती यद् उक्तवती
का वाज़् द क्वेश्चन्.
का का कुत्र
काः काः कुत्र सन्ति,
काः काः कुत्र सन्ति, कथं कथम् उत्तरं दातुम् इष्टवती भवती? काः कुत्र सन्ति भगिनी, तस्याः उत्तरं, तस्य उत्तरं किं भवति? काः कुत्र सन्ति,
काः गृहे सन्ति.
काः गृहे सन्ति, ओके अस्तु. अनन्तरं तत् उत्तमं वाक्यं रचयितुं पुनः भगिनी अत्र पुनः चिन्तयित्वा कुत्र त्यजतु, केवलं का योजयित्वा एकवचने वाक्यं वदतु, अपि च काः योजयित्वा अन्यं वाक्यं वदतु. अत्र
का का सम्यक् कार्यं करोति वा,
वा इत्यस्य आवश्यकता नास्ति, का का सम्यक् कार्यं करोति.
बट् का क्वश्चन् प्रश्नवाक्य प्रश्नवाक्यपदम्.
आं भगिनी, आम् चिन्तयतु, का सम्यक् कार्यं करोति, गीता भगिनी सम्यक् कार्यं करोति.
ओके
सम्यक् वाक्यं
आवश्यकता न
भवति अत्र. का कार्यं सम्यक् करोति, वाक्यम् उत्तमं, वाक्यं समीचीनं वा न वा, सर्वे चिन्तयन्तु. वाक्यं समीचीनमेव,
समीचीनं.
का सम्यक् करोति कार्यं, गीता भगिनी सम्यक् करोति. द्वितीयं बहुवचने करोतु.
काः सम्यक् पठन्ति, काः काः सम्यक् पठन्ति,
काः पठन्ति,
ताः काः सम्यक् पठन्ति,
ताः सम्यक् पठन्ति. उत्तमं, तत् योजयित्वा वदतु.
तत् फलं बहु मधुरम् अस्ति.
तत् फलं मधुरम् अस्ति, उत्तमं. बहुवचने तदेव वाक्यं वदतु.
तानि फलानि मधुरं सन्ति.
पुनः
तानि फलानि मधुरं सन्ति.
कः समीकरोति, आचार्यमहोदय भवान् समीकरोति वा?
ओ तानि फलानि मधुराणि
सन्ति. उत्तमं,
तानि फलानि मधुराणि सन्ति.
उत्तमम् उत्तमम्.
ओके
भवती एव समीकृतवती, तानि फलानि मधुराणि सन्ति, मधुराणि सन्ति,
मधुराणि.
अणकारः
मधुरं, मधुरं इस् लैक् अड्वर्ब् वा? न,
अत्र भगिनी, अत्र भगिनी तानि फलानि मधुराणि सन्ति, तदेव सम्यक्,
तदेव सम्यक्.
अनन्तरं करोतु. किं किम् एतत् एतत् योजयित्वा.
एतत् एतत् पुस्तकं एतत् पुस्तकं बहु उपयोगम्
एतत् पुस्तकं
बहु बहु समीचीनमस्ति
बहु समीचीनमस्ति एतत् पुस्तकं बहु समीचीनमस्ति बहुवचने वदतु
एतानि पुस्तकानि बहु समीचीनं सन्ति
तदेव पूर्वं यत् दोषः कृतवती तदेव कृतवती तदेव दोषं भवती पुनः कृतवती समीकरणम्
ओके एतानि पुस्तकानि बहु समीचीनानि
समीचीनानि सन्ति
सन्ति
उत्तमं किं किं योजयित्वा
समीचीनम् अव्ययपदं न
अत्र समीचीनं पदं विशेषणत्वेन अपि उपयोगः भवति समीचीनं
भवति
समीचीना समीचीनः त्रिषु लिङ्गेषु विशेषणत्वेन त्रिषु लिङ्गेषु वदतु किं
किं किं किं किं
सर्वे चिन्तयन्तु
प्रतिदिनं प्रातःकाले प्रतिदिने प्रातःकाले प्रतिदिनं प्रातःकाले
प्रतिदिनं प्रातःकाले
प्रातःकाले
किं करोति उत्तमं तदेव वाक्यं किं करोति वदतु
प्रतिदिनं प्रातःकाले कानि कुर्वन्ति
कानि कार्याणि कुर्वन्ति
कानि कार्याणि कुर्वन्ति
उत्तमं भवान् योजयित्वा वदतु
भवान् किञ्चित् संस्कृतभाषायां वदतु
भवान् किञ्चित् संस्कृतभाषायां वदतु अत्र साधारणतया संस्कृतभाषया वदतु
भाषया
संस्कृतभाषया वदतु अथवा यदि भवती भाषापदमपि योजयित्वा वक्तुमिच्छति चेत् संस्कृतभाषया वदतु अथवा संस्कृतेन वदतु
थर्ड् केस् भवान् किञ्चित् संस्कृतभाषया वदतु भवान् किञ्चित् संस्कृतेन वदतु
बहुवचनं वदतु
भवन्तः किञ्चित् संस्कृतभाषया वदन्तु
उत्तमम् अनन्तरं भवती योजयित्वा वदतु
भवती बहु समीचीनं गीतं गायति
भवती अत्र भवती बहु समीचीनतया गायति
अत्र
किमर्थम् इत्युक्ते समीचीनता इति पदं समीचीनस्य भावः समीचीनता इति वदामः समीचीनता अथवा मधुरता मधुरस्य भावं मधुरता तल् प्रत्ययम् इति वदामः ता इति वर्णमागच्छति तत्र एकः प्रत्ययः अस्ति परन्तु यथा मधुरता उष्णता तथा एव अत्रापि समीचीनता इति वदामश्चेत्
भवती समीचीनता गीतं गायति
समीचीनतया
भवती समीचीनतया गीतं गायति
नो चेत् भवती
समीचीनं प्लीस् say translate in English, how would you say, what is the meaning? Bhavati,
you sing very well. Samichinataya gayati athava samichinam iti padam avyayam api asti. Atah bhavati kevalam samichinam geetam gayati. अत्र अवगतवती वा अत्र
समीचीनः इति प्रथमतया भवती एव उक्तवती. विशेषणमेव अस्ति न भवति
विशेषणमपि विशेषणमपि अस्ति सम्यक् इति अव्ययं अस्ति इति अहं सम्यक् अव्ययं परन्तु उत्तममेव सम्यक् इति अव्ययम् अत्र समीचीनं विशेषणत्वेन उपयोगं कुर्मः. अत्र समीचीनं गीतं गायति समीचीनं गीतं गायति भवत्यः योजयित्वा वदतु.
भवत्यः समीचीनताभिः
न भगिनी अत्र पश्यतु किमर्थं तत्र बहुवचनं योजनीयं. समीचीनता इति तस्याः तस्य बहुवचनरूपं आवश्यकं नास्ति. भवत्यः समीचीनतया गीतं गायन्ति अथवा गीतानि गायन्ति.
ओके भवत्यः समीचीनतया गीतानि गायन्ति. ओके बट् ऐ वाण्ट् टु से जस्ट् समीचीनं भवत्यः समीचीनं गीतानि गायन्ति.
गीतानि गायन्ति उत्तमम्. अहं योजयित्वा वदतु.
अहं संस्कृतभाषतया होडिसेत् भाषा ऐ वाण्ट् टु स्पीक् इन् संस्कृतं वेल्
वदतु प्रयत्नं करोतु. अहं संस्कृतेन
संस्कृतेन एण्ड् वाट् इस् अदर् वर्ड् यु सेड् संस्कृतया संस्कृतभाषया
प्रथमतया प्रथमं वाक्यं पूरयतु अनन्तरं द्वितीयं वाक्यं.
ओके प्रथमम् अहं संस्कृते सम्यक् वक्तुम् इच्छामि.
पुनः वाक्यं समीकृत्य वदतु.
अहं संस्कृतया सम्यक् वाक्यं वक्तुम् इच्छामि.
अत्र प्रथमं वाक्यमपि समीकरणीयं द्वितीयं वाक्यमपि तत्र समीकृत्य एव वक्तव्यम्. अत्र प्रथमं वाक्यं कथम् उक्तवती भवती. अहं संस्कृतेन वदामि. संस्कृते यदि संस्कृते इति पदं योजयामश्चेत् विभक्तिः का? सप्तमी भवति. परन्तु अत्र तृतीया विभक्तेः आवश्यकता अस्ति. अहं संस्कृतेन वदामि अथवा अहं संस्कृतया संस्कृतभाषया वक्तुमिच्छामि.
पदं संस्कृते
संस्कृतं संस्कृतम् इति
पदं संस्कृते संस्कृतया संस्कृतेन नपुंसकलिङ्गं
संस्कृतं
संस्कृतेन संस्कृतं संस्कृतेन संस्कृते प्रथमाविभक्ति तृतीयाविभक्ति सप्तमी विभक्ति.
उत्तमम्. अत्र संस्कृतम् इति पदं कथम् आगतम् इत्युक्ते सम्यक् कृतं संस्कृतम् सम्यक् कृतं संस्कृतम् इत्युक्ते द लेङ्ग्वेज् दट् वास् मेड् पर्फेक्ट्लि दट् इस् संस्कृतं. तथा एव तत् पदम् आगतम्. उत्तमं भगिनी. धन्यवादः. अनन्तरम् अधुना शोभा भगिनी, अधुना वयं किं कुर्मः इत्युक्ते, परन्तु अत्र अहम् एकं वक्तुमिच्छामि. करपत्रे कानिचन पदानि सन्ति, एतानि पदानि सर्वे एकवारं कण्ठस्थीकुर्वन्तु. किमर्थं चेत् कण्ठस्थीकरणेन बहु लाभः अस्ति. कण्ठस्थीकरणम् आवश्यकं, न्यूनातिन्यूनं एकमासपर्यन्तं सर्वे प्रतिदिनं प्रातःकाले पञ्चनिमिषात् पर्यन्तं पठन्ति चेत् सम्यक् सम्यक् भवति. अनन्तरं केचन जनाः प्रतिदिनं रटनं कुर्वन्ति. रटनम् इत्युक्ते कः वदति? बैहाट् कुर्वन्ति. प्रतिदिनं रटनं कुर्मः चेत् एतानि पदानि सर्वदा स्थायिरूपेण तिष्ठन्ति. स्थायिरूपेण इत्युक्ते दे विल् बि पर्मनेण्ट् इन् अवर् मैण्ड्. तथा न्यूनातिन्यूनं एकमासपर्यन्तं सर्वे कुर्वन्तु, तथा एव एतानि सर्वाणि पदानि अपि मनसि तिष्ठन्ति. मनसि स्थास्यति चेत् यदा कदापि वयं वक्तुमिच्छामः तदा एतानि पदानि स्मरणे शीघ्रम् आगच्छन्ति. तत्तु उत्तमं, कण्ठस्थीकरणम् उत्तमं कार्यं, किञ्चित् प्रयत्नं कुर्वन्तु. अत्र शोभा भगिनी,
आं भगिनी,
भवती अभ्यासपुस्तके एकं अभ्यासद्वयं गृहपाठरूपेण दत्तवती अहं, तत् करोतु भगिनी अभ्यासद्वयं.
सारी भगिनी, विच् वन्?
अत्र एकविंशतितमे पुटे 4.2 ऊ भागे
प्रश्नात् लिखतु.
न अत्र प्रयोगपरिवर्तनं करोतु.
ओके, फोर् उ, ओके, प्रयोगपरिवर्तनं करोतु. यथा भवान् बालकः, अहं बालकः.
अत्र भवान् बालकः वाक्यं बहुवचने वदतु.
भवन्तः बालकाः.
उत्तमम्. अहं बालकः बहुवचने.
अहं, वयं बालकाः.
भवती जानाति चेत् द्विवचने अपि वदतु. अहं चिन्तयामि अत्र संस्कृतभाषायां बहुवचनं, एकवचनं, द्विवचनं, बहुवचनं, वचनत्रयमस्ति. तथा एव प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, तथा पुरुषद्वयमपि अस्ति. इत्युक्ते यदि भवती जानाति चेत् द्विवचने अपि एतदेव वाक्यं वक्तुं प्रयत्नं करोतु.
आवां बालकौ.
उत्तमं. प्रथमं वाक्यं द्विवचने वदतु.
भवान् भवान् भवन्तः भवान् बालकौ ऐनो भवान्
भवान् भवान् शब्दस्य द्विवचनरूपं किं? भवन्तौ.
भवन्तौ, ओके, भवन्तौ बालकः.
भवन्तौ
भवन्तौ बाल सारि भवन्तौ बालकौ.
उत्तमं, तावदेव. अद्वितीयं करोतु.
भवती अध्यापिका, भवत्यौ अध्यापिकौ, अहम् अध्यापिका.
बहुवचनमपि, प्रथमं वाक्यं बहुवचनमपि.
भवत्याः मीन्स् युवर्स्. भवतः
अत्र भगिनी, अत्र पश्यतु, भवती अध्यापिका एकवचने अस्ति. प्रथमतया द्विवचने द्विवचने वाक्यं वदतु.
भवत्यौ अध्यापिकौ.
न, अध्यापिका इति पदम् आकारान्तपदम्. आकारान्तपदस्य द्विवचनरूपं
द्विवचन अध्यापिके.
उत्तमं, पुनः तदेव वाक्यं वदतु.
भवत्यौ अध्यापिके.
उत्तमं. बहुवचनं वदतु.
बहुवचनं भवत्यः अध्यापिक वन् सेकेण्ड् भवत्यः अध्यापिकाः.
उत्तमम्. उत्तमपुरुषे वदतु. उत्तमपुरुषे तदेव तानि एव वाक्यानि वदतु.
हा, अहम् अध्यापिका. वयम् अध्यापिकाः. आवाम् अध्यापिकौ अध्यापिके.
उत्तमं. तृतीयं करोतु.
भवन्तः शिक्षकाः. अहं शिक्षिका. आवां शिक्षका. आवां शिक्षिके.
अत्र भगिनि प्रथमतया भवन्तः शिक्षकाः इति बहुवचने अस्ति. तदेव वाक्यं एकवचने अपि च द्विवचने वदतु.
भवान् शिक्षकः.
उत्तमं.
भवन्तौ शिक्षकौ.
उत्तमम्. उत्तमपुरुषे वदतु.
अहं शिक्षकः. वयं शिक्षकाः. आवां शिक्षकौ.
उत्तमं. चतुर्थं करोतु.
भवत्यः विद्यार्थिन्यः. भवती विद्यार्थिनी. भवतौ विद्यार्थिन्यौ.
भवत्यौ
विद्यार्थिन्यौ.
अत्र विद्यार्थिनी नदी नद्यौ नद्यः. उत्तमं. अनन्तरम्
अहं विद्यार्थिनी. आवां विद्यार्थिन्यौ. वयं विद्यार्थिनी. नदी शब्दस्य भवति. भवतः. अहं विद्यार्थी. आवां विद्यार्थौ.
अत्र विद्यार्थिनी पदस्य द्विवचनरूपम् आवश्यकं. यथा नदी
विद्यार्थिनी विद्यार्थौ विद्यार्थिन्यौ. सारि, आवां विद्यार्थिन्यौ.
बहुवचनं.
वयं विद्यार्थिनी. सो नद्यः. वयं
अत्र दत्तमस्ति विद्यार्थिनी विद्यार्थिन्यौ विद्यार्थिन्यः विद्यार्थिन्यः. तत्र बहुवचनरूपं दत्तमस्ति.
ओके ओके.
तदेव करोतु.
वयं विद्यार्थिन्यः.
उत्तमम्. अनन्तरं 4.2 करोतु शीघ्रं.
हा, प्रश्नात् लिखतु. यथा एते छात्राः. एते के.
एकवचने वदतु. केवलम् एकवचने वदतु भगिनि. अत्र द्विवचनं मास्तु, केवलम् एकवचने कुर्मः. किमर्थं चेत् अत्र अस्माकं कृते बहूनि कार्याणि सन्ति. अन्यानि अपि करोतु. केवलम् एकवचने वदतु.
ओके. एतः छात्रः. एषः छात्रः. एषः कः.
एषः कः. उत्तमम्.
Do you want me to read the plural, then say it in singular, Bhagini?
Prathamatya pustake kim dattam asti tat pathatu. Anantram parivartayatu.
Okay. Etaha sthalikaha. Sa sthalika. Sa ka sa sthalika. वयम्
एताः स्थालिकाः इति पदस्य प्रश्नवाचकरूपं किं, प्रश्नवाचकपदं वाक्यं किं भवति?
काः स्थालिकाः?
उत्तमम्. अनन्तरं
वयं सचिवाः. अहं सचिवः. अहं सचिवः. वयं के? अहं अहं कः?
अहं कः? उत्तमं. यदि अत्र अत्र पश्यतु भगिनि, वयं सचिवाः इति वाक्यं पुंलिङ्गे अस्ति. पुंलिङ्गे अस्ति इति वयं चिन्तयामश्चेत् यद्भवती उक्तवती तत्तु समीचीनं. यदि स्त्रियः वक्तुमिच्छन्ति चेत् अत्र स्त्रीलिङ्गे वदामश्चेत् कथं वदामः? अहं चिन्तयामि सचिवः इति पदस्य स्त्रीलिङ्गरूपं सचिवा इति भवति चेत् तत्र वाक्यं कथं भवति?
अहं सचिवा. वयं सचिवाः ओन्लि.
अत्र इत्युक्ते सचिवः सचिवा तयोः बहुवचनरूपं समानम्. तथा एव अत्र स्त्रीलिङ्गे प्रश्नवाचकवाक्यं वदामश्चेत् किं भवति?
वयं सचिवाः. ताः काः?
उत्तमं. वयं काः? ताः काः इत्युक्ते अत्र वयं काः?
वयं काः.
तथा एव एकवचने किं वदामः?
अहं का?
उत्तमम्. अनन्तरं करोतु.
एतानि चित्राणि. एतत् चित्रं. एतानि चित्राणि के चित्राणि?
चिन्तयतु.
किं चित्रं?
किं चित्रम्? एकवचने उत्तमं. बहुवचने किं वदामः?
कानि चित्राणि?
उत्तमम्. अनन्तरं
ताः पत्रिकाः. ताः पत्रिकाः. पत्रिकः. ताः सा पत्रिका.
उत्तमं. प्रश्नवाक्यद्वयं वदतु.
हा, का पत्रिका? सा पत्रिका. काः पत्रिकाः? ताः पत्रिकाः.
उत्तमम्. अत्र पूर्वस्मिन् वाक्ये चित्राणि इति पदमस्ति. अहं चिन्तयामि भवती जानाति एव तत्र मूर्धन्यणकारः किमर्थमस्ति इति भवती जानाति. अहं चिन्तयामि चित्रम् इति पदस्य बहुवचनरूपं चित्राणि भवति. किमर्थं चेत् तत्र तस्मिन्नेव पदे रेफः अस्ति, अपि च दन्त्यनकारः अपि अस्ति. यदि एकस्मिन्नेव पदे रेफः अपि च दन्त्यनकारः अस्ति चेत् तत्र दन्त्यनकारस्य स्थाने मूर्धन्य णकारादेशः भवति इति एकः नियमः अस्ति, एकं सूत्रमस्ति.
भगिनी, दन्तनकारस्य अर्थं किम् अस्ति?
नाम इति पदम् उच्चारयामश्चेत् नाम इति पदम् उच्चारयामश्चेत् भवती किञ्चित् परिशीलयतु. तदा नकारस्य उच्चारणसमये अस्माकं जिह्वा दन्तान् स्पृशति.
ओके,
किञ्चित् परिशीलयतु अत्र नाम अथवा नो चेत् तत्र अन्यानि पदानि सङ्कानि
नाम ऐ जस्ट् राइट् भगिनि.
पदानि नी वदामस्य पदानि वदामश्चेत् तत्र नकारस्य उच्चारणसमये तत्र अस्माकं जिह्वा दन्तान् स्पृशति, अतः दन्त्यनकारः इति वदामः. परन्तु अन्यनकारः मूर्धन्यणकारः. मूर्धन्यणकारः इत्युक्ते तत्र अण इति वदामश्चेत् तदा जिह्वा मूर्धभागं स्पृशति.
सञ्चिका.
तदर्थमेव तस्य नाम अस्ति मूर्धन्यणकारः.
धन्यवादः.
अतः बेक् आफ् द थ्रोट् भगिनि,
मूर्धा
मूर्धा इत्युक्ते रूफ् आफ् द पेलेट् मूर्धा मूर्धां स्पृशति मूर्धन्
ओके ओके सारि
प्रथमतया संस्कृतभाषायां ला इति पदं नास्ति भगिनि अनन्तरं ते योजितवन्तः संस्कृतभाषायां केवलं लकारः एव अस्ति अनन्तरं लकारः योजितः इति अहं श्रुतवती प्रीवियस्लि आक्चुलि इट् वास् ओन्लि ला यथा कल्याणम् इति अस्ति न तु कल्याणम् तथा वदतु अनन्तरम् अन्तिमम्
अन्तिमं ते वैद्याः
न तस्मात् पूर्वं कृतवती वा वयं शिक्षिकाः करोतु
ओके वयं शिक्षिकाः ते शिक्षिकाः वयं शिक्षिकाः
वयं
शिक्षिकाः
एकवचने वदतु
अहं शिक्षिका अहं का अहं शिक्षिका
उत्तमम् अत्र पश्यतु भगिनि शिक्षिका इति पदे क्ष इति पदमस्ति तदपि संयुक्ताक्षरं तत्र क्ष इति पदं संयुक्ताक्षरम् अत्र ककारे षकारः अस्ति ककारे षकारः अस्ति अतः एव क्ष इति अक्षरम् आगच्छति वदतु अनन्तरम् अन्तिमं करोतु
ते वैद्याः ते के न के ते काः ते वैद्याः वैद्याः प्लूरल् पुल्लिङ्गमस्ति न भगिनि
तदेव प्रश्न अस्माकं प्रश्नः अत्र पश्यतु अत्र ते वैद्याः इत्यस्मिन् वाक्ये अत्र वैद्याः इति पदं पश्यामश्चेत् प्रश्नवाचकवाक्यं रचयितुं न शक्नुमः इट् इस् नाट् ईज़ि टु रैट् क्वश्चन् सेण्टेन्स् जस्ट् बै लुकिङ्ग् एट् वैद्याः किमर्थं तथा इत्युक्ते अत्र वैद्यः इति पदं पुंलिङ्गे स्वीकुर्मः चेत् वैद्यः भवति वैद्यः इति पदस्य बहुवचनरूपं किं
वैद्याः
तथा किं कुर्मः तदा किं कुर्मः इत्युक्ते तत्र सर्वनामपदं किम् इति पश्यतु अत्र सर्वनामपदं किम्
ते
इति पदं कुत्र आगच्छति स्त्रीलिङ्गे आगच्छति वा बहुवचने पुंलिङ्गे आगच्छति वा
ते पदं बहुवचने पुंलिङ्गे आगच्छति
अतः एव एतत् वाक्यं पुंलिङ्गे अस्ति
जस्ट् लैक् सचिवाः भगिनि
तथा एव करोतु
ते वैद्याः के वैद्याः ते वैद्याः
तदेव वाक्यं स्त्रीलिङ्गे वक्तुमिच्छति चेत् किं वदामः
ताः वैद्याः काः वैद्याः ताः वैद्याः
ताः वैद्याः इत्युक्ते अस्मिन् वाक्ये केवलं ते इति पदं पश्यामश्चेदेव तत्र वाक्यं पुंलिङ्गे अस्ति इति वयम् अभिज्ञातुं शक्नुमः वि केन् रिकग्नैस् ओन्लि वित् द हेल्प् आफ् ते दट् द वैद्याः इति पदं पुंलिङ्गे अस्ति इति वयं ज्ञातुं शक्नुमः उत्तमः धन्यवादः भगिनि अनन्तरं रघुपतिमहोदय
अतिथयः आगतवन्तः अहं विरमामि भगिनि
अस्तु महोदय अस्तु अनन्तरं अत्र सतीश् महोदय
भवान् समासः पदं अर्थं किम् अस्ति भगिनि
समासः इत्युक्ते समस्तपदम् इत्युक्ते समस्तपदं एतानि पदानि एकं पदम् इति वदामश्चेत् व्यस्तप्रयोगः इति वदामः. यु आर् पृथक् पृथक्तया पदानि वदामः, परन्तु अत्र एकं पदम् इत्यस्मिन् स्थाने एकपदम् इति वदामश्चेत् तत्र समस्तपदम् इति वदामः. यु आर् जायिनिङ्ग् द वर्ड्स् टुगेदर् वित् द हेल्प् आफ़् समास, वित् द हेल्प् आफ़् समास. तदेव समस्तपदं व्यस्तपदं, समस्तप्रयोगः व्यस्तप्रयोगः इति वदामः. व्यस्तप्रयोगः इत्युक्ते तस्मिन् प्रयोगे पदानि पृथक् पृथक् योजयामः. समस्तप्रयोगे समासं कृत्वा वदामः. सतीश् महोदय, भवान् करोति वा? अभ्यासपुस्तके किम् अस्ति? महोदय, सतीश् महोदय, अत्र सतीश् महोदय, वंशीसुत् वदतु महोदय. अभ्यासपुस्तके क्रियापदानि
पदोरेखा अङ्कितस्य केवलं वचनपरिवर्तनं करोतु. यथा
अत्र अधो महोदय, अत्र अधोरेखाङ्कितस्य इति पदमस्ति, तस्य अर्थः कः?
अधः रेखा अङ्कितस्य, अधः रेखा अधोरेखा.
उत्तमं. सन्धिः का सः
महोदय? गुणसन्धि
न, न, अत्र विसर्गसन्धिः अस्ति. इत्युक्ते अत्र अधः योगः रेखाङ्कितस्य, अत्र विसर्गस्य स्थाने उकारादेशः भवति, अतः अधोरेखाङ्कितस्य इति भवति. अधोरेखाङ्कितस्य इत्युक्ते आङ्ग्लभाषायां किं?
रिटन् डौन् अण्डर्लैण्ड्.
अण्डर्लैण्ड्, उत्तमम्. अण्डर्लैण्ड्, उत्तमम्.
पुनरेकवारं वदतु पृथक्तया वाक्यम् अधोरेखाङ्कितस्य.
अधोरेखाङ्कितस्य इति पदमस्ति, षष्टिविभक्तौ अस्ति, परन्तु अत्र अधः योगः रेखाङ्कितस्य इति अस्य अस्ति. अत्र विसर्गसन्धिः अस्ति. विसर्गसन्धिसूत्राणि सन्ति, पञ्चसूत्राणि सन्ति. अत्र विसर्गस्य स्थाने ओकारादेशः भवति, तत्र एकं सूत्रमस्ति. वदतु महोदय, भवान् करोतु.
केवलं वचनपरिवर्तनं करोतु. यथा
वचनपरिवर्तनं,
सः विद्यालये पठति, उत्तर ते विद्यालये पठन्ति.
उत्तमं.
सा गृहे वसति, ता गृहे वसन्ति.
ताः
गृहे वसन्ति.
उत्तमम्. अनन्तरम्
एषः कार्यालये तिष्ठति, एताः कार्यालये तिष्ठन्ति.
एषः कार्यालये तिष्ठति, बहुवचनरूपं किं भवति?
एताः, एते कार्यालये तिष्ठन्ति.
उत्तमम्. अनन्तरं
लतायां पुष्पं विकसति, लतायां पुष्पाणि विकसन्ति.
लतायां पुष्पाणि विकसन्ति. यदि भवान् लतायाम् इति पदमपि बहुवचने वक्तुम् इच्छति चेत् करोति वा?
लतायां पुष्पाणि विकसन्ति, लतायां, लतायां बहुवचनमस्ति.
लतायाम् इति
पदं लतानां.
न, न महोदय, अत्र शृणोतु, लतायाम् इति पदं सप्तमी एकवचने अस्ति, परन्तु यदि भवान् बहुवचने तत्पदमपि बहुवचने वक्तुमिच्छति चेत् तदपि बहुवचने वदतु. लतासु,
लतेषु, लतासु, लतासु पुष्पं विकसन्ति, लतासु, लतासु इति सम्यक्,
लतासु पुष्पाणि विकसन्ति. अत्र पश्यन्तु, सर्वे पश्यन्तु, अत्र लतायां पुष्पं विकसति इति वाक्यमस्ति. पुष्पं लतायां विकसति, तदपि समीचीनं. पुष्पं विकसति लतायां, तदपि समीचीनम्. इत्युक्ते अहं किं वक्तुम् इच्छामि चेत् अत्र संस्कृतभाषायां पदक्रमस्य प्राधान्यता नास्ति. इत्युक्ते यत्र कुत्रापि पदानि भवितुमर्हन्ति, इत्युक्ते तस्य पदक्रमस्य प्राधान्यता नास्ति, परन्तु एकः साधारणक्रमस्य आवश्यकता अस्ति. यदि साधारणक्रमः नास्ति चेत् किञ्चित् क्लेशकरं भवति, अवगमनं क्लेशकरं भवति. देर् मस्ट् बि सम् जनरल् वर्ड् आर्डर्, अदर्वैस् नो फर् द बिगिनर्स् इट् इस् वेरि डिफिकल्ट् टु अण्डर्स्टाण्ड् द लेङ्ग्वेज्. दट् इस् द रीसन् वि प्रिफर् सम् जनरल् वर्ड् आर्डर्, बट् actually there is no importance for the word order in Sanskritam. Atah eva latayam vikasati pushpam, tadapi samichinam eva.
We can also, can we also vikasati pushpam latayam, we can do that also, Bhagini.
You can do that, Bhagini. Tadapi samichinam, tadapi samichinam. Parantu prarambhikastariya chhatranam krute ekah kramah avashyakah. Mm-hmm. For the beginners, it is very important to have some word order. At least for us, we need it. Uttam. Mahode, anantram karotu.
Bhavan kridangane kridati. Bhavantah kridangane kridanti.
Uttam. Atra pashyatu, Mahode. Kridanganam. Kridanganam iti padam. Kridanganam iti padam asti. Kridanganam iti padasya. विभक्तिः अत्र क्रीडाङ्गणे दत्तमस्ति. विभक्तिः का?
द्वितीयविभक्ति.
सप्तमी विभक्ति. उत्तमं. क्रीडाङ्गणम् इति पदस्य सप्तमी रूपं क्रीडाङ्गणे भवति. परन्तु अत्र पश्यतु महोदय, लेखनशैलीं पश्यतु. अत्र क्रीडाङ्गणम् इति पदमस्ति. अत्र अत्र अनुस्वारस्य स्थाने कवर्गीय अन्तिमव्यञ्जनं ञकारादेशः भवति. इत्युक्ते अत्र लेखनशैलीं वैशिष्ट्यमस्ति. वैशिष्ट्यं किम् इत्युक्ते अस्मिन् पदे अनुस्वारस्य स्थाने कवर्गीय अन्तिमव्यञ्जनं ञकारः योजयित्वा अनन्तरं गकारं लिखामः. इत्युक्ते अत्र एक तस्य कृते एकः सन्धिः अस्ति. तस्य नाम अस्ति परसवर्णसन्धिः. परसवर्णसन्धिः, परसवर्णसन्धिं कृत्वा तत्र क्रीडाङ्गणे इति पदं तथा एव लेखनीयं. क्रीडाङ्गणम् अनुस्वारस्य स्थाने परसवर्णादेशः भवति. अतः एव तस्य नाम अस्ति परसवर्णसन्धिः. अनन्तरम् अत्र अपि द्वाविंशतितमे पुटे अपि पठतु महोदय.
भवति प्रतिदिनं नृत्यति. भवति भवति भवत्यो भवत्यः भवति भवत्यो भवत्यः भवत्यः प्रतिदिनं नृत्यन्ति.
भवत्यः नृत्यन्ति. अनन्तरम् अत्र अत्र पश्यतु, प्रतिदिनम् इति पदं क्रियाविशेषणम्. अनन्तरं वने अग्रिमं
वने सिंह, वने सिंह गर्जति. वने सिंह, वनेषु सिंह गर्जन्ति.
सिंहाः गर्जन्ति.
सिंहाः सिंहाः गर्जन्ति.
वनेषु.
भगिनि एक प्रश्नमस्ति. वनेषु, वनेषु श इस् विच् श भगिनि?
अत्र मूर्धन्यषकारः इति वदामः भगिनि. तत्र पश्यतु सस्यं, शृण्वन्तु. अत्र सस्यम् इति पदमस्ति. सस्यम् इत्यस्मिन् सकारः अस्ति. तस्य नाम अस्ति दन्त्यसकारः. अनन्तरं शीतलं, शीतलम् इति पदमस्ति. अथवा श्रीकृष्णः, श्री तत्र शकारः अस्ति. तस्य नाम अस्ति तालव्यशकारः. अपि च कृष्ण, कृष्ण इत्यस्मिन् शकारः अस्ति. तस्य नाम अस्ति मूर्धन्यशकारः. इत्युक्ते अत्र दन्ते सकारः, तालव्यशकारः, मूर्धन्य षकारः. अत्र अत्र किं दत्तमस्ति? वनेषु, वनेषु इत्यस्मिन् मूर्धन्यषकारः आगच्छति सप्तमे बहुवचने. वदतु महोदय.
धन्यवादः. एषः चित्रं पश्यति, एषः चित्रं पश्यति, एताः चित्रं पश्यन्ति,
एताः चित्रं पश्यन्ति अथवा एताः चित्राणि पश्यन्ति, तदपि समीचीनम्. उत्तमं महोदय, अनन्तरं करोतु.
बालः शालां गच्छति, बालाः शालां गच्छन्ति,
बालाः शालां गच्छन्ति. उत्तमं. यदि भवान् शालाम् इति पदमपि बहुवचने वक्तुम् इच्छति चेत् वदतु.
शालान् वानरः फलं खादति, वानराः फलं खादन्ति,
वानराः फलं खादन्ति. अथवा फलमपि बहुवचने वदतु.
फलानि,
फलानि. तत् वाक्यं पूरयतु. वाक्यं
वानरः फलानि खादन्ति.
वानराः फलानि खादन्ति. अधुना अहं बहुवचन अहम् एकवचनं रूपं वदामि, भवान् बहुवचनरूपं वदतु. गृहं,
अहं, वयं.
न गृहं, गृहं,
गृहं, गृहं, गृहाणि.
पुष्पं,
पुष्पाणि.
पात्रं,
पात्राणि.
उपनेत्रम्,
उपनेत्राणि.
यन्त्रं,
यन्त्राणि.
चित्रं,
चित्राणि.
पत्रं,
पत्राणि.
नेत्रं,
नेत्राणि.
नेत्रे महोदय, नेत्रे,
नेत्र, नेत्रे. डिस्ट्रिक्ट् क्वेश्चन्.
उत्तमम्, उत्तमम्. अत्र अस्मिन् एतेषु पदेषु अत्र नत्वम, नत्वं किमर्थम् इत्युक्ते रेफः अस्ति. अतः अनन्तरं पुनः अहम् एकवारं एकवचनरूपं वदामि, भवान् बहुवचनरूपं वदतु. फलं,
फलानि.
वातायनं,
वातायनानि.
जलं,
जलं, जलानि.
धनं,
धनानि.
वनं,
वनानि.
सस्यं,
सस्यं,
सस्यानि. यानं,
यानं, यानानि.
पुस्तकं,
पुस्तकानि.
उत्तमम्. इत्युक्ते एतेषु पदेषु णत्वं नास्ति. किमर्थं चेत् तस्मिन् पदे रेफः वा मूर्धन्यषकारः वा अथवा कृष्णरेकारः वा नास्ति. अतः दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः न भवति, केवलं दन्त्यनकारः एव तिष्ठति. अतः एव फलं, फलानि एव भवति, परन्तु गृहं, गृहाणि भवति. उत्तमम्. अनन्तरं करोतु. 4.3 भागे किम् अस्ति?
4.3 बहुवचनरूपाणि लिखतु, यथा भवान् पठतु, उत्तर भवन्तः पठन्तु, भवती लिखतु, भवत्याः लिखन्तु, लिखतु, लिखन्तु. अम्बः गच्छतु, अम्बाः गच्छन्तु.
अम्बे, अम्बा, अम्बे,
अम्बे, अम्बे, अम्बे. धन्यवादः. अम्बे. अनुजः क्रीडतु, अनुजाः क्रीडन्तु.
अत्र अत्र अनुजः इति पदमस्ति, स्त्रीलिङ्गे वदामश्चेत् वदतु महोदय.
अनुजा, लता, लते, लता. स्त्रीलिङ्ग अति अति अनुजः अपि भवति, अनुजा अपि भवति.
वदतु, स्त्रीलिङ्गे वदतु.
सेम् सेम्. अनुजः बालिका नृत्य.
महोदय, अत्र अनुजः क्रीडतु, अनुजः क्रीडतु इति वाक्यं पुंलिङ्गे अस्ति, स्त्रीलिङ्गे वदतु.
अनुजः क्रीडन्तु.
न महोदय, अत्र एकवचने, एकवचने केवलम् एकवचने स्त्रीलिङ्गे वदामश्चेत् अनुजा क्रीडतु,
अनुजा क्रीडतु, स्त्रीलिङ्गे अनुजा, लता लते लता, अनुजा अनुजाः अनुजाः क्रीडन्तु.
अत्र पुंलिङ्गे अपि अनुजाः क्रीडन्तु भवति, स्त्रीलिङ्गे बहुवचने स्त्रीलिङ्गबहुवचने अपि अनुजाः क्रीडन्तु एव भवति. अनन्तरं करोतु महोदय. बालिका,
बालिका नृत्यतु, बालिकाः नृत्यन्तु.
उत्तमम् उत्तमम्. यदि भवान् जानाति चेत् द्विवचनरूपमपि वक्तुं शक्नोति.
बालिकौ बालिकौ नृत्य बालकौ नृत्य.
अत्र बालिकापदस्य द्विवचनरूपं
बालिके बालिके नृत्यतु नृत्यतां बालिके.
करोतु महोदय.
एष तिष्ठतु, एतः एतः तिष्ठन्तु.
अत्र एषः तिष्ठतु अस्ति, एषः तिष्ठतु एव वाक्यं. द्विवचने वदतु अपि च बहुवचने अपि वदतु.
एतौ एतौ तिष्ठताम्.
उत्तमम्.
एते तिष्ठन्तु.
उत्तमम्. एते तिष्ठन्तु. अनन्तरं 4.3 भागे बहुवचनरूपाणि वदतु.
यथा बहुवचनरूपाणि लिखन्तु. यथा अहं खादामि, वयं खादामः.
द्विवचनं वदतु. अत्र द्विवचनं वदतु.
अवां खादाम खादाव खादाव
आवां खादावः
आम् अवां खादावः.
उत्तमम्.
अहं हसामि, वयं हसामः. अवां हसावः. अहम् इच्छामि, वयम् इच्छामः.
आवाम् इच्छावः. उत्तमम्. अनन्तरम्
अहं पिबामि, वयं पिबामः. अवां पिबावः.
आवां पिबावः. उत्तमम्. अत्र विशेषाभ्यासः अस्ति, विशेषाभ्यासमपि पठतु महोदय.
करोति कुर्वन्ति, शृणोति शृण्वन्ति, ददाति ददति. ओ मै गॉड, दिस् इस् डिफरेण्ट्. ददाति ददति, दिस् इस् विशेष. जानाति जानन्ति, शक्नोति शक्नुवन्ति, करोमि कुर्मः, शृणोमि शृणुमः, ददामि दद्मः, दिस् इस् डिफरेण्ट्. जानामि जानीमः, शक्नोमि शक्नुमः.
उत्तमम् उत्तमम्. इत्युक्ते अत्र एकः विशेषाभ्यासः दत्तः. इत्युक्ते अत्र साधारणतया पठति पठन्ति भवति, परन्तु अत्र विशेषक्रियापदानि दत्तानि. तद् किमर्थं तथा इत्युक्ते संस्कृतभाषायाम् अहम् अत्र एकं वक्तुमिच्छामि. संस्कृतभाषायाम् 2,000 धातवः सन्ति. इत्युक्ते देर् आर् मोर् देन् 2,200 धातुस्. धातुः इत्युक्ते क्रियापदस्य मूलरूपं, क्रियापदस्य मूलरूपम् एव धातुः. प्रायशः 2,000 धातवः सन्ति, परन्तु सर्वे धातवः दशसु गणेषु विभक्ताः सन्ति. इत्युक्ते तत्र गणाः सन्ति, दशगणाः सन्ति संस्कृतभाषायाम्. इत्युक्ते यथा भुआदिगणे, अदादिगणे, जुहोत्यादिगणे, दिवादिगणे, स्वादिगणे, तुदादिगणः, रुदादिगणः, तनादिगणः, क्रयादिगणः, चुरादिगणः, तथा दशगणाः सन्ति. इत्युक्ते एकैकस्य क्रियापदस्य प्रत्येक विलक्षणलक्षणमस्ति. एकैकस्य गणस्य प्रत्येकं लक्षणमस्ति. क्रियापदस्य मूलरूपं दृष्ट्वा ते किं कृतवन्तः इत्युक्ते क्रियापदस्य लक्षणम् अनुसृत्य ते धातुं गणे स्थापितवन्तः. प्रत्येकस्मिन् गणे स्थापितवन्तः. तदर्थमेव अत्र रूपाणि भिन्नानि भवन्ति. किमर्थं तथा? यदि वयं पठ धातुं पठति इति क्रियापदं पठ धातुतः आगच्छति. पठ धातुतः पठति आगच्छति. पठति लट्लकाररूपं. पठति इति पदस्य नवरूपाणि सन्ति. कः कोऽपि जानाति वा पठति पदस्य नवरूपाणि? न महोदय, अत्र लट्लकारे एव नवरूपाणि सन्ति. लट्लकारे पठति इति पदस्य नवरूपाणि कानि? कः वदति? गीता भगिनी वदति वा? तदेव वद. शनैः वदतु महोदय, स्लोलि शनैः वदतु. तदेव पठति पठति अत्र पश्यतु, पठति पठतः पठन्ति इत्युक्ते प्रथमपुरुषे एकवचने द्विवचने बहुवचने क्रियापदानि लट्लकाररूपाणि. पठति पठतः पठन्ति इति भवति. मध्यमपुरुषे वदतु,
पठसि पठतः पठतो.
उत्तमं. मध्यमपुरुष कर्तृपदानि कानि महोदय?
पठति पठतः पठन्ति पठसि पठतः पठतः पठामि पठाव पठामि.
न न, अहं किं पृच्छामि इत्युक्ते अत्र मध्यमपुरुषे कर्तृपदानि कानि?
कर्तृपदानि कानि?
त्वं वदतु भगिनि.
युवां यूयम्.
उत्तमं. त्वं युवां यूयं मध्यमपुरुषे कर्तृपदम्. अतः एव त्वं पठसि इति वदामः. अनन्तरम् उत्तमपुरुषे वदतु महोदय, पठति पदस्य
पठामि पठाव पठामः. अहं पठामि, वयं पठावः, आवां पठामः.
उत्तमम्. आवां पठामः इत्युक्ते अत्र आवां पठावः, वयं पठामः. तथा पठति इति क्रियापदस्य लट्लकारे नवरूपाणि सन्ति. परन्तु पठधातुः यथा पठधातुः अस्ति तथा एव पठति खादति गच्छति आगच्छति एतानि सामान्यक्रियापदानि. इत्युक्ते एतेषां रूपाणि क्लिष्टकराणि न सन्ति. इत्युक्ते केवलम् एतानि पदानि रूपाणि सामान्यानि. परन्तु अत्र अन्यानि क्रियापदानि दत्तानि अस्मिन् पुस्तके. विशेषाभ्यासः इति रूपेण नूतनानि पदानि दत्तानि. एतानि किञ्चित् क्लिष्टकराणि. इत्युक्ते किमर्थं तथा इत्युक्ते ते असामान्यरूपाणि. इत्युक्ते अत्र एकः नियमः अस्ति. नियमः कः इत्युक्ते क्रियापदे लट्लकाररूपे ति इति अन्तिमभागे ति इति अक्षरमस्ति. पठति गच्छति ति इति अस्ति. ति इत्यस्मात् पूर्वं यदि अकारः अस्ति तदा रूपाणि सामान्यानि भवन्ति. इत्युक्ते ति इत्यस्मात् पूर्वम् अकारः अस्ति चेत् पठति पठन्ति, खादति खादन्ति, गच्छ इत्यस्मिन् अकारः श्रूयते. ति इत्यस्मात् पूर्वं यदि अकारः श्रूयते चेत् तदा रूपं सामान्यम् यथा सामान्यं भवति. इत्युक्ते पठति पठन्ति गच्छति गच्छन्ति तदा भवति. परन्तु ति इत्यस्मात् पूर्वम् ओकारः श्रूयते चेत् ओकारः श्रूयते चेत् तदा रूपं भिन्नं भवति. करोति करोति कर्व करन्ति न भवति. किमर्थं तथा? करोति इति पदस्य अन्ते ति तिङ् प्रत्ययः अस्ति. ति इत्यस्मात् पूर्वम् ओकारः अस्ति. अतः ओकारः अस्ति. अतः तस्य बहुवचनरूपं भिन्नं भवति. करोति इत्यस्य बहुवचनरूपं कुर्वन्ति भवति. तथा एव शृणोति. ति इत्यस्मात् पूर्वम् ओकारः अस्ति. अतः एव तस्य बहुवचनरूपं शृण्वन्ति शृण्वन्ति भवति. तथा एव अत्र शक्नोति इति पदमस्ति. ति इत्यस्मात् पूर्वम् ओकारः अस्ति. अतः तस्य बहुवचनरूपं शक्नुवन्ति इति भवति. परन्तु अत्र इत्युक्ते अत्र एकैकं पदम् एकस्मिन् अत्र शृणोति शक्नोति इति पदद्वयम् एकस्मिन् गणे सन्ति. परन्तु करोति अपि तस्मिन्नेव गणे भवति. अपि च पठति इति पदम् अन्यस्मिन् गणे अस्ति. अपि च अत्र जानाति इति पदमस्ति. जानाति इत्यस्मिन् पदे ति इति अक्षरात् पूर्वं दीर्घ आकारः अस्ति. तथा दीर्घ आकारः अस्ति चेत् तत्रापि द्विवचने अपि च बहुवचने रूपाणि भिन्नानि भवन्ति. यथा कः कोऽपि जानाति वा, जानाति इति पदस्य द्विवचनरूपं किम्?
जानीवः.
उत्तमम् उत्तमम्. इत्युक्ते अत्र जानाति जानीतः. जानाति जानीतः अपि च जानन्ति इति भवति. इत्युक्ते अत्र ज्ञाधातुः अन्यस्मिन् गणे अस्ति. अतः गणम् अनुसृत्य तत्र लट्लकाररूपाणि भवन्ति. अतः एव अत्र विशेषाभ्यासरूपेण अत्र नूतनानि क्रियापदानि एकवचने अपि च बहुवचने दत्तानि. तथा एव अत्र ददति इति क्रियापदमस्ति. ददति इति क्रिया इति क्रियापदे ति इत्यस्मात् पूर्वम् अत्र ददाति दत्तः ददति इति भवति. इत्युक्ते ददाति इति क्रियापदं जुहोत्यादिगणं जुहोत्यादिगणे इति अस्ति. तथा अत्र प्रथमपुरुषे एकवचने अपि च बहुवचने पदानि दत्तानि. अपि च उत्तमपुरुषे अपि पदानि सन्ति. पुनः अत्र उत्तमपुरुषे वदतु महोदय एकवारं. करोमि करोमि
करोमि
वदतु. करोमि कुर्मः. अपि च शृणोमि
शृणुमः शृणुमः
ददामि
जानामि जानीमः
जानामि जानामि जानीमः. इत्युक्ते अत्र एतानि सर्वाणि पदानि अपि किञ्चित् भिन्नानि. अतः एव शक्नोमि शक्नुमः. उत्तमम्. इदानीं पर्यन्तं वयं क्रियापदानां विषये किञ्चित् ज्ञातवन्तः. अधुना वयं किं कुर्मः इत्युक्ते अस्माकं पार्श्वे एका कथा अस्ति. कथायाः पठनात् पूर्वम् अहम् एकं वक्तुमिच्छामि. अत्र अहम् एकं श्लोकं वदामि. यदि भवन्तः जानन्ति चेत् वदन्तु कस्मिन् सन्दर्भे कः वदति. सर्वे शृण्वन्तु. अत्र मम पार्श्वे एकः श्लोकः अस्ति. श्लोकः कः श्लोकः एवम् अस्ति. नाहं जानामि केयूरे, नाहं जानामि कुण्डले, नूपुरे तु अभिजानामि नित्यं पादाभिवन्दनात् इति श्लोकः अस्ति. पुनः एकवारं वदामि. भवन्तः सर्वे ऊहां कुर्वन्ति चेत् वक्तुं शक्नुवन्ति. पुनः एकवारं वदामि. नाहं जानामि केयूरे, नाहं जानामि कुण्डले, नूपुरे तु अभिजानामि नित्यं पादाभिवन्दनात्. अत्र अन्वयः अन्वयम् अपि वदामि. अहं केयूरे किञ्चित् शृणोतु भगिनि, भवती एव वदतु. अत्र अहं केयूरे न जानामि, अहं कुण्डले न जानामि, परन्तु नित्यं पादाभिवन्दनात् नूपुरे तु अभिजानामि इति वदति. इत्युक्ते अत्र
लक्ष्मणः रामं प्रति
उत्तमम् उत्तमं तदेव. यदि भवन्तः वक्तुमिच्छन्ति चेत् वदन्तु तस्मिन् विषये. अत्र जानामि इति वयं क्रियापदं पठितवन्तः, अतः एव अहं किञ्चित् उक्तवती. इत्युक्ते अत्र रामायणे एषः श्लोकः अस्ति. यदा रावणः सीताम् अपहृतवान् तदा सीता तस्याः आभरणानि भूमौ पातितवती. तदा रामः कानिचन आभरणानि लक्ष्मणं दर्शयित्वा लक्ष्मणं पृष्टवान्. रामः लक्ष्मणा यदि भवान् जानाति चेत् अभिज्ञातुं शक्नोति चेत् एतानि आभरणानि कया धृतानि इति रामः लक्ष्मणं पृष्टवान्। यदि भवान् अभिज्ञातुं शक्नोति चेत् एतानि आभरणानि दृष्ट्वा वदतु इति रामः लक्ष्मणं प्रति पृष्टवान्। तदा लक्ष्मणः वदति, हे भ्राता, अहं केयूरे न जानामि, अपि च कुण्डले न जानामि, परन्तु नित्यं पादाभिवन्दनात् नूपुरे तु अभिजानामि। अत्र अभिजानामि इत्युक्ते किम्? आङ्ग्लभाषायां वदन्तु। नू अभिजानामि, कः वदति अभिजानामि? अभिजानामि अभिजान अभिजानामि इत्युक्ते ऐ केन् रिकग्नैज़्, I can recognize. Uttamam.
Keyurum means what, Bhagini?
Keyurum. Haste vayam, hastasya abharanani. Keyurum, kundalam. Kundalam chitte, keyurum, hastabharanam, karanabharanam. Parantu nupurum,
Bhagini, keyurum, kankanam, artham, yeka eva?
Keyurum.
अहं चिन्तयामि समानमेव समानमेव।
केयूरम् इस् अ जनरल् वर्ड्, हस्ताभरणं कङ्कणम् इस् वन् वन् आफ् दोस् वन् आफ् द केयूरम्।
आम् तदेव इत्युक्ते अत्र कुण्डलम् इत्युक्ते कर्णाभरणम्। अहं चिन्तयामि कुण्डलम् इत्युक्ते कर्णाभरणं, केयूरम् इत्युक्ते हस्ताभरणम्।
ओके,
अत्र नूपुरम् इत्युक्ते भवन्तः जानन्ति एव पादाभरणम्। अनन्तरं मम पार्श्वे अन्यः श्लोकः अस्ति, एकः श्लोकः पञ्चतन्त्रात् एकः श्लोकः अस्ति, मित्रसम्प्राप्तिः इति भागे अस्ति श्लोकः। एवम् अस्ति, ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति, भुङ्क्ते भोजयते चैव, षड्विधं प्रीतिलक्षणम्। अस्मिन् श्लोके बहूनि क्रियापदानि सन्ति, ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति, भुङ्क्ते भोजयते चैव, षड्विधं प्रीतिलक्षणम् इत्युक्ते मित्रतायाः लक्षणानि, मित्रतायाः लक्षणानि कानि? वाट् आर् द क्यारेक्टरिस्टिक्स् आफ़् फ्रेण्ड्शिप् अस्मिन् एतस्मिन् श्लोके अस्ति इत्युक्ते वस्तूनाम् अर्पणं करोति, अपि च प्रतिगृह्णाति इत्युक्ते यदि अन्यः किञ्चित् दीयते चेत् तर्हि तत् स्वीकरोति, अपि च गुह्यमाख्याति इत्युक्ते रहस्यं वदति मित्रस्य पार्श्वे, अपि च ज्ञातुकामो भूत्वा प्रश्नं पृच्छति, अपि च मित्रगृहे भोजनं खादति, अपि च मित्रं खादयति। तथा एतानि षड् लक्षणानि मित्रतायाः लक्षणानि इति एषः श्लोकः वदति। अनन्तरं वयं कथां प्रति गच्छामः। अत्र कथा अस्ति, इदानीं पर्यन्तं कः न पठितवती? अत्र भूमा भगिनी भवती करोति वा?
आं भगिनि
करोतु, कथां पठतु, कथां पठतु।
एकः भिक्षुकः, सः गृहं गृहं गच्छति, भिक्षायाचनां करोति। एकदा सः चिन्तयति, भिक्षया अहम् अधिकं धनं सम्पादितवान् अस्मि, अतः काशीं गत्वा विश्वनाथदर्शनं करिष्यामि इति। एकः भिक्षुकः पूर्णं पठितुं
वा? अत्र एकवारं पूर्णतया कथां पठतु।
सः काशीं गच्छति, देवदर्शनतः पूर्वं स्नानं कर्तुम् इच्छति सः, अतः सः गङ्गानदीं गच्छति। स्नानसमये चोरः मम धनम् अपहरति चेत् कष्टं खलु इति सः चिन्तयति। अनन्तरं सः एकम् उपायं करोति, अहं गर् गर्तं कृत्वा तिकतायां धनपात्रं स्थापयामि, उपरि एकं शिवलिङ्गं स्थापयामि, तदा मम धनपात्रं कोऽपि न स्पृशति इति. सः तथैव करोति, स्नानार्थं गच्छति. अनन्तरम् एकः यात्रिकः यात्रिकः
तत्र मुद्रणदोषः अस्ति भगिनि, यात्रिः यात्रिकः.
एकः स्नानं करोति, तीरे एकं शिवलिङ्गमस्ति, अतः काश्यां परम्परा अस्ति स्नानात् पूर्वं शिवलिङ्गं करणीयम् इति सः चिन्तयति. शिवलिङ्गं निर्माति, स्नानार्थं गच्छति. अपरः आगच्छति, सः अपि एवम् एव करोति. अन्ते भिक्षुकः स्नानं कृत्वा आगत्य पश्यति, तीरे सहस्रशः शिवलिङ्गानि. मया कृतं शिवलिङ्गं कुत्र इति सः न जानाति. मम धनं नष्टम् इति खेदम् अनुभवति सः.
श्लोकः अपि पठतु.
गतानुगतो लोके न कोऽपि पारमार्थिकः, गङ्गासैकतलिङ्गेन नष्टं मे ताम्रभाजनम्.
उत्तमं, भवती अवगतवती वा कथा? अत्र किञ्चित् पश्यामः. अत्र एकः भिक्षुकः, सः किं करोति?
सः भिक्षां या
भगिनी ताम्रभाजनम् अस्ति चेत् अर्थं
ताम्रभाजनम् इत्युक्ते ताम्रपात्रम्.
ओ ताम्रपात्रम्, ओ ओके, कापर् वेसल्
इत्युक्ते अत्र ताम्रपात्रम्. अत्र किञ्चित् म्यूट् करोमि. अत्र उत्तमम्. अत्र भिक्षुकः प्रतिदिनं गृहं गच्छति. गृहं किमर्थं गच्छति?
भिक्षायाचनं गच्छति.
भिक्षायाचनार्थं गच्छति. परन्तु अहं पृच्छामि, इदानीन्तनकाले अपि प्रतिदिनं गृहं केचन जनाः आगच्छन्ति, ते के? एव्रिडे, इवन् टु नवडेस् आल्सो सम् विल् कम् टु अवर् हौस् डेलि.
From Anathalaya and somebody they will come.
अहं मम गृहे प्रतिदिने क्रैस्तवमतप्रवर्तकाः
आगच्छन्ति.
ते अपि भिक्षुकाः एव इत्युक्ते LSC अथवा क्रैस्तवमतप्रवर्तकाः ते अपि सर्वे आगच्छन्ति. अहं चिन्तयामि हिन्दूधर्मे एव सर्वं निक्षिप्तमस्ति, अन्यस्य धर्मस्य आवश्यकता एव नास्ति अस्माकं कृते.
सम्यक् कर्तुम् इच्छामः न
इत्युक्ते अस्माकं हिन्दूधर्मे एव सर्वं निक्षिप्तमस्ति, अतः अन्यधर्मस्य चिन्तनमेव आवश्यकं नास्ति. अत्र भिक्षायाचनां करोति सः भिक्षुकः. अनन्तरं सः एकदा सः किं चिन्तयति?
धनम् अधिकं मयि तिष्ठति, सम्पादय. अतः काशीं गत्वा काशीविश्वेश्वरं दर्शयामि इति चिन्तयति.
उत्तमम्. अत्र मम पार्श्वे अधिकं धनमस्ति. मम पार्श्वे अधिकं धनमस्ति. अहम् इदानीं पर्यन्तम् अधिकं धनं सम्पादितवान् अस्मि. परन्तु भिक्षायाचनेन तथा अधिकं धनं सम्पादयितुं शक्यं वा?
शक्यम् अधुना
शक्यं वा? उत्तमं. भिक्षायाचनेन अधिकं धनं कथं सम्पादयितुं शक्यम् अहं न अवगतवती, परन्तु सः सम्पादितवान् अत्र. उत्तमम्.
अनन्तरं दूरवाणी सर्वं भिक्षुकाः पार्श्वे सन्ति अधुना.
उत्तमम्. अनन्तरं सः कालान्तरेण अधिकं धनं सम्पादितवान्, अनन्तरं विश्वनाथदर्शनं करिष्यामि इति सः चिन्तितवान्. अत्र पश्यामः विश्वनाथदर्शनं किमर्थं करणीयं, कः वदति? अन्यः शोभा भगिनी वदतु.
ज्ञानार्थं भगिनी,
ज्ञानार्थम् अपि च
ज्ञानवैराग्यसिद्ध्यर्थं.
ज्ञानवैराग्यसिद्ध्यर्थम् अपि च सतीश् महोदय वदतु.
सरेण्डर् द ईगो भगिनी.
सरेण्डर् द ईगो, उत्तमम् उत्तमम्. सतीश् महोदय भवान् वदति वा विश्वनाथदर्शनं किमर्थं करणीयम्? अत्र अत्र एकः श्लोकः अस्ति, अत्र एकं श्लोकं वदामि.
कर्म विमोचनम्.
सुचित्रा भगिनी वदतु.
कर्म विमोचनम्.
कर्म विमोचनं, उत्तमम् उत्तमम्. अपि च सतीश् महोदय भवान् वक्तुमिच्छति वा? नो चेत् अत्र अहम् एकं वदामि. अत्र एकः श्लोकः अस्ति, मरणं मङ्गलं यत्र विभूतिश्च विभूषणं, कौपीनं यत्र कौशेयं, सा काशी केन मीयते. एकः श्लोकः अस्ति काश्यां विश्वनाथदर्शनम् इत्युक्ते अत्र यत्र मरणमपि मङ्गलम् इत्युक्ते यत्र मरणमपि शुभकरम् एव यस्मिन् स्थले तथा एव यत्र विभूतिः अपि विभूषणं भूषणम् इव भाति सा एव काशी. अपि च कौपीनं यत्र कौशेयम्, अत्र कौपीनम् इत्युक्ते लघुवस्त्रं, भवन्तः जानन्ति एव कौपीनम् इत्युक्ते लघुवस्त्रं. परन्तु कौपीनमपि कौशेयं, कौशेयम् इत्युक्ते पीताम्बरं, पीताम्बरम् इव दृश्यते तत्र. तस्याः काश्याः माहात्म्यं केन मीयते, केन मीयते इत्युक्ते मापनं कर्तुम् अशक्यं. काश्याः माहात्म्यं वयं मापनं कर्तुं, गणनां कर्तुम् अशक्यम् इति एषः श्लोकः वदति. अतः एव सः भिक्षुकः काशीं गतवान्, काशीं गत्वा विश्वनाथदर्शनं करिष्यामि इति चिन्तितवान्. अनन्तरं कः वदतु भगिनि,
पुनरः कृपया आङ्ग्लं वदतु.
अत्र श्लोकः वदति वि केनाट् मेजर् द इम्पार्टेन्स् आफ् काशी. द रीज़न् ईस् काशी हेज़् सो मेनि like you can see so many universities also. That means there no you will ultimately we are all looking for vairagya there. No you will get both jnana and vairagya. When we go to Kashi, there we'll get both jnana and vairagya. That means there you can see lot of sages. There if we die, it is even the death is also considered as auspicious. अतः
काश्यां तु मरणान् मुक्तिः इति वचनं भगिनि.
उत्तमम् उत्तमम् उक्तवान् महोदय. अत्र तदपि एकः श्लोकः अस्ति, काश्यां तु मरणान् मुक्तिः अथवा पुत्रसन्निधौ. इत्युक्ते अत्र काश्यान्त् मरणान् मुक्तिः अथवा पुत्रसन्निधौ इत्युक्ते वेन् यु हेव् रियल्लि वैराग्य, इट्स् आल्वेस् ए गुड् ऐडिया टु गो टु काशी, सो दट् यु वित् दट् वैराग्य भाव इफ् यु डै देर् इट् इस् वण्डर्फुल्. इफ् यु डोण्ट् हेव् वैराग्य, इट्स् आल्वेस् गुड् ऐडिया टु स्टे वित् युवर् ओन् किड्स् सो दट् यु विल् हेव् दट् पीस् आफ् मैण्ड्. अल्टिमेट्लि वि आर् आल् लुकिङ्ग् फर् पीस् आफ् मैण्ड् आर् मुक्ति. मुक्ति मीन्स् लैक् you know, it's the kind of feeling that you get. Atah eva kashyant maranan muktihi adhava putra sannidhau iti vadanti. Anantram dvitiyam द्वितीयपरिच्छेदः किम् अस्ति अत्र? वंशी सुधा भगिनी भवती करोति वा?
आं भगिनि,
अत्र
किं करोमि भगिनि, अर्थः
द्वितीयपरिच्छेदं पुनः एकवारं पश्यामः. सः काशीं गच्छति. सः काशीं गत्वा किं कर्तुमिच्छति?
विश्वनाथदेवदर्शनं कृतवती
कर्तुमिच्छति. विश्वनाथदर्शनात् पूर्वं किं करणीयम्?
यदि अत्र भवान् उक्तवान्
अत्र सः भिक्षुकः, उत्तमं, सः भिक्षुकः गङ्गास्नानं कर्तुमिच्छति. देवदर्शनात् पूर्वं स्नानं कर्तुमिच्छति. परन्तु देवदर्शनात् पूर्वं किमर्थं स्नानं करणीयं वदतु.
इन्द्रियाणि शुद्धं कृतं स्नानं करणीयम्.
उत्तमं.
कर्मेन्द्रिया शुद्धं करणीयं, स्नानं करणीयम्.
उत्तमम्. इत्युक्ते बाह्यशरीरशुद्धिः आवश्यकी, अतः एव स्नानं कृत्वा देवालयं गच्छामः. स्नानं कुर्मः चेत् तदा किं भवति? शरीर बाह्यशरीरशुद्धिः भवति. परन्तु देवालयस्य अन्तः गच्छामश्चेत् किं भवति? तदा अन्तःकरणशुद्धिः भवति. भवन्तः जानन्ति वा अन्तःकरणम् इत्युक्ते किम्? उत्तमम्. अन्तःकरणचतुष्टयम् इति वदामः. अन्तःकरणचतुष्टयम् इत्युक्ते मनोचित्त बुद्ध्यहङ्कार इत्युक्ते यदि वयं स्नानं कुर्मः चेत् बाह्यशरीरशुद्धिः भवति. यदि देवालयस्य अन्तः गच्छामश्चेत् तदा मनोमालिन्यम् अपगच्छति. मनोमालिन्यम् इत्युक्ते भगवता दर्शनेन अथवा भगवतः दर्शनेन अथवा भगवतः गुणकीर्तनेन मनोमालिन्यम् अपगच्छति, अथवा निर्मलचित्ताः भवामः. यदि वयं देवालयं गत्वा निर्मलचित्ताः भवामः वा, तत्तु अन्या वार्ता. परन्तु तदर्थमेव देवालयं गन्तव्यम्. देवालयं गन्तव्यम्. अतः एव भिक्षुकः सः स्नानं कृत्वा देवदर्शनं कर्तुमिच्छति. तदर्थं सः गङ्गानदीं गच्छति. काश्याः समीपे नदी अस्ति. नद्याः नाम किं भगिनि?
गङ्गानदी.
गङ्गानद्याः जलं पापं दूरीकरोति इति एका प्रथा अस्ति. इत्युक्ते पापप्रक्षालनं करोति अथवा अस्मान् पवित्रीकरोति इति अस्ति. परन्तु गङ्गानदी अस्मान् पवित्रीकरोति, परन्तु गङ्गानद्याः जलं कः शुद्धीकरोति? कः तस्याः शुद्धीकरणं कः करोति?
शिवः करोति.
अशुद्धं नहि नहि भवति.
गङ्गा अशुद्धं न भवति, न जलम् अशुद्धं भवति भगिनि. गङ्गा हर्सेल्फ् द देवता, द सूक्ष्मशरीर अशुद्धं कदापि न भवति.
कदापि न भवति. परन्तु
मोदी
करोति बाह्यशुद्धिः करोति. उत्तमम्. इत्युक्ते नद्याः जलम् अपि शुद्धीकरणीयम्. तदा एव वयं गन्तुं शक्नुमः, तत्र गन्तुं शक्नुमः. उत्तमम्. अनन्तरं सः चिन्तयति, वंशीसुधा भगिनी भवती एव अत्र वदतु, स्नानात् पूर्वं गङ्गानदी सः किं चिन्तयति?
स्नानानन्तरं चिन्तयति मम धनम् अपहरति चेत् कष्टं इति चिन्तितवान्. तदनन्तरम् उपायं कृत्वा एकः धनपात्रे स्थापयति. एकः गर्तं कृत्वा कृत्वा धनपात्रं स्थापयति. सः
तस्य उपरि
तस्य उपरि एकः लिङ्गं स्थापयति. तदनन्तरं स्नानं कर्तुं गतवान्.
स्नानं कर्तुं गतवान् इत्युक्ते अत्र गर्तं कृत्वा, गर्तम् इत्युक्ते अत्र सिकता इति स्त्रीलिङ्गे अस्ति, परन्तु सैकतम् इति अपि वक्तुं शक्नुमः. गर्तम् इत्युक्ते बिलं वा अथवा रन्ध्रं वा कृत्वा सः किं करोति, तस्य धनं सर्वमपि एकस्मिन् पात्रे, ताम्रपात्रे वा अथवा ताम्रपात्रे एव पात्रे स्थापयित्वा तत् पात्रं सिकतायां स्थापयति. तस्य उपरि एकं शिवलिङ्गं निर्मीय शिवलिङ्गमपि स्थापयति. तदनन्तरं सः चिन्तयति, अहं यथा करोमि एतत् करोमि चेत् धनपात्रं, मम धनपात्रं कोऽपि न स्पृशति इति चिन्तयित्वा सः स्नानार्थं गच्छति. स्नानात् अनन्तरं पठतु भगिनि, अनन्तरं वदतु.
अनन्तरं एकः यात्रिका आगच्छति, अनेका यात्रिकाः आगच्छन्ति. एकमेकं स्नानात् पूर्वं पश्यति शिवलिङ्गम् अस्ति तथा एव काशीं प्रथा अस्ति चिन्तयति. सर्वे अपि शिवलिङ्गं निर्मितवन्ति. सर्वे निर्मितः स्नानां गच्छन्ति.
तत्र स्थगयतु, तत्र स्थगयतु. इत्युक्ते एतदभ्यन्तरे, इन् दिस् मीन् टैम्, इन् द मीन् टैम्, एतदभ्यन्तरे एकः अन्यः यात्रिकः अपि तत्र आगच्छति. सः किं चिन्तयति, अत्र गङ्गानद्याम् एकः स्नानं करोति, अपि च गङ्गानद्याः तीरे एकं शिवलिङ्गम् अस्ति इति पश्यामि चेत् अत्र एका परम्परा अस्ति इति भाति. स्नानात् पूर्वं सर्वे शिवलिङ्गं कृत्वा एव स्नानं करणीयम् इति एका प्रथा अथवा एका परम्परा अस्ति इति भाति अत्र. अतः अहमपि तथा एव करोमि इति सः यात्रिकः, सः यात्रिकः चिन्तितवान्. सः अपि अन्यं शिवलिङ्गं निर्मीय स्नानार्थं गतवान्. तदा किम् अभवत्?
अनन्तरं भिक्षुकः स्नानं कृत्वा आगच्छति, परन्तु पश्यति चेत् तीरे सहस्रः लिङ्गानि सन्ति. तदा चिन्तयति, मया कृतं शिवलिङ्गं कुत्र अस्ति? सः न जानाति, सः रोदति, खेदति, धनमेव नष्टं भवति इति चिन्तयति.
तथा खेदम् अनुभवति. इत्युक्ते अत्र ये यात्रिकाः आगतवन्तः तत्र ते सर्वे अपि तथा एव कृतवन्तः. तथा एव इत्युक्ते स्नानात् पूर्वं ते सर्वे अपि एकमेकं शिवलिङ्गं निर्मीय ते सर्वे अपि गङ्गानद्यां स्नानं कर्तुं गतवन्तः. परन्तु अन्ते भिक्षुकः स्नानं कृत्वा बहिः आगत्य पश्यति चेत् किम् अभवत्? तत्र अनेकानि शिवलिङ्गानि, सहस्रशः शिवलिङ्गानि सन्ति, परन्तु सः चिन्तयति, मया कृतं शिवलिङ्गं कुत्र अस्ति इति सः अन्वेषितवान्, परन्तु न दृष्टवान्. तथा सः किं वदति, मम धनं नष्टं, मम धनपात्रं लुप्तम् इति चिन्तयित्वा सः खेदम् अनुभवति. इत्युक्ते सः दुःखितवान्, किमर्थं तथा तस्य धनं सर्वम् अपि नष्टम्. इदानीं पर्यन्तं यः सः यत् सम्पादितवान् तत् सर्वं धनमपि नष्टम् अभवत्. अतः स एव उक्तवान् एषः श्लोकः, तस्य चिन्तनमेव एषः श्लोकः. सः वदति गतानुगतिके गतानुगतिको लोके न कोऽपि पारमार्थिकः गङ्गासैकटलिङ्गेन नष्टं मे ताम्रभाजनम् इत्युक्ते अस्मिन् लोके बहवः जनाः गतानुगतिकः परन्तु न कोऽपि पारमार्थिकः पारमार्थिकजनाः न सन्ति अतः एव मम ताम्रभाजनं गङ्गासैकतलिङ्गेषु नष्टम् अभवत् इत्युक्ते जनाः केवलम् अनुकरणं कुर्वन्ति अत्र कथायाः नीतिः का किञ्चित् कालं वदन्तु सर्वे वदन्तु शङ्करन् महोदय भवान् वदति वा नो अत्र नास्ति सः वदतु शोभा भगिनी वक्तुमिच्छति वा
अहम् आङ्ग्लभाषे
वदामि
इन् ए वे वि आर् आल् भिक्षुकास् and when we go to God we should go with the vairagya surrender the ego to get gnana so since the bhikshuka went without vairagya without seeking gnana he didn't get anything out of it in turn he lost the money actually and how superstition how superstitions come into practice just by blindly following someone else and misunderstanding the Vedic traditions and so important thing is that we should first have vairagya to go to Kashi and also if we are not able to go to Kashi it's okay it's enough to get vairagyam where we are and then attain gnanartham and that itself is Kashi and that is Vishwanatha darshanam is the phalam of vairagya and gnana
uttamam bhagini धन्यवादः
धन्यवादः भगिनि
अनन्तरं सतीश् महोदय भवान् वदति वा सः अस्ति वा
Someone was having lot of technical difficulties bhagini I wonder if it was him
okay
okay
can you hear me hello can you hear me
I can hear
can you hear me
महोदय श्रूयते वदतु
okay सामान्यतः जना परिमार्थिकाः न भवन्ति सामान्यतः जना परिमार्थिकाः न भवन्ति केचित् जनाः श्रद्धावान् जनाः हि कश्चित् प्राप्यन्ते सत्र मनुष्याणां शस्त्रेषु कोऽपि यतति सिद्धये एव भवति
उत्तमः श्लोकः महोदय भगवद्गीतायाम् उत्तमः श्लोकः
कोऽपि जना आन्तरिक हृदये श्रद्धां न लभन्ति
उत्तमं श्रद्धां न लभन्ते अत्र पारमार्थिकः इत्युक्ते अत्र तद्धितप्रत्ययः अस्ति तद्धितप्रत्ययः इत्युक्ते अत्र पारमार्थिकः इत्युक्ते यस्य परमार्थज्ञानम् अस्ति स एव पारमार्थिकः परमार्थज्ञानम् अस्ति चेत् स पारमार्थिकः यथा दशरथस्य पुत्रः दाशरथी तथा एव यस्य परमार्थज्ञानम् अस्ति यस्मिन् परमार्थज्ञानम् अस्ति सः पारमार्थिकः उत्तमम् अनन्तरम् अत्र सुचित्रा भगिनी भवती वदति वा किञ्चित् कथायाः नीतिः
आं भगिनि
वदतु नीतिः वदति वा
यु जस्ट् कान्ट् वाट् इस् इट् If you think you can go on, in this case, he's earned so much money, he thinks, and he feels guilty, okay, so he thinks, okay, if I visit Kashi Vishwanatha, everything will be solved, but that's not the case. You have to do, when you feel like, you've earned so much, maybe you should set up something, part of it for some other use, rather than just washing away your guilt just by visiting temple. That's
Uttamam.
Bhagini, these days, a lot of rush in the
Nowadays, no, there is lot of importance to Karmakanda. People are all doing puja, but that avaniti and everything is there. So that is the problem in the society. What you said is perfectly right, Bhagini. Uttamam. Anantaram, atra Gita Bhagini, bhavati vaktum icchati va? Gita Bhagini.
Must have gone.
Otherwise, atra Asha Bhuma Bhagini, vadati va?
Vayam. Sarvam Krishnarpanam astu eva karyam kurmaha chet sarva Vishwanatha darshanam bhikshukaha drishtitavanam darshanam kartum
shaknamaha
प्रथमतः परमात्मेन दृढविश्वासं
दृढविश्वासः आवश्यकः अस्तु महोदय अनन्तरम् अत्र केवलं गतानुगतिकः इति पदमस्ति गतानुगतिकः इत्युक्ते केवलम् इमिटेटर् अनुकर्ता अथवा अनुकारी इत्युक्ते यः अनुकरणं करोति सः एव गतानुगतिकः इत्युक्ते यः प्रथमः मार्गे चलन् अस्ति तस्य पादमुद्रा पङ्क्तौ चलामश्चेत् किञ्चित् दूरमेव वयं गन्तुं शक्नुमः परन्तु परमार्थज्ञानं न प्राप्नोति इत्युक्ते गतानुगतिकः मा भवतु केवलं चिन्तयित्वा सम्यक् चिन्तयित्वा अथवा विचिन्त्य तत्त्वं ज्ञातव्यम् इत्युक्ते तत्त्वम् अवगन्तव्यं तत्त्वज्ञानं विना केवलम् अनुकरणं कुर्मः चेत् किमपि प्रयोजनं नास्ति इति अस्याः कथायाः नीतिः सर्वेषाम् अधुना समापयामः सर्वेषां धन्यवादः नमस्कारः
भगिनी एकः प्रश्नः अस्ति मे षष्ठीविभक्ति अस्ति न भगिनि मम यामे
पुनः पृच्छतु भगिनि
मे गङ्गासैकतलिङ्गेन नष्टं मे ताम्रभाजनं मे इत्युक्ते षष्ठी विभक्तौ अस्ति न भगिनि
हा उत्तमं मे इत्युक्ते तत्र मम
इत्युक्ते अत्र अथवा
मे अत्र अहम् अस्मत् शब्दस्य षष्ठीविभक्तेः रूपं विकल्पेन रूपद्वयं सम्भवति तत्र मे अथवा मम अत्र एकम् अन्यः विषयः अस्ति अत्र श्लोके पाठान्तरमस्ति पाठान्तरमस्ति इत्युक्ते देर् इस् अनदर् वे आफ् रिसैटिङ्ग् दिस् श्लोक गङ्गासैकतलिङ्गेषु नष्टं मे ताम्रभाजनं तदपि पाठान्तरमस्ति परन्तु अत्र अस्मिन् श्लोके गङ्गासैकतलिङ्गेन इति दत्तमस्ति परन्तु पाठान्तररूपेण गङ्गासैकतलिङ्गेषु इत्यपि समीचीनम्
एकः प्रश्नः अस्ति महोदय
अधुना किञ्चित्